ॐ नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः पुरुषोत्तमयुग। श्रीभगवानुवाच, ऊर्ध्वमूलङ्गदशाखम् अश्वत्थं प्राहुरव्ययं छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्। अधश्चूर्धं प्रसुता तस्य शाखा गुणप्रवृद्धा विषयप्रबाला। अधश्च मूलान्ननुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके। न रूपमस्येह तथोपलभ्यते नन्तो न चादीर्ण च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ततः पदं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूय। तमेव चद्दं पुरुषं प्रपद्ये यतं प्रवृत्ति प्रसूता पुराणी। निर्मानमोहाजितसङ्गदोषा अध्यात्मनीता विनिवृतकामां द्वन्द्वैर्विमुक्ता सुखदुःखसङ्गै र्गच्छन्त मूढा पदमं व्ययं तत् न तद्भासयते सूर्यो न सशङ्को न पापक। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ममैवंशजीवलोके। जीवभूतः सनातन मनसष्टानिन्द्रियाणि प्रकृति तानि कर्षति शरीरं यदवाप्नोति यच्चाप्युत्क्रामति स्वर। गृहीत्वैतानि सञ्जाति वायुर्गन्धमिभासयात्। स्तोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च। अधीष्टाय मनश्चायं विषय्यन् उपसेवते उत्क्रामन्तं स्थितं वापि मुञ्जानं वा गुणान्वितं विमूढानानुपश्यन्ति। पश्यन्ति यान चक्षुषां जातन्तो जुगिनश्चैनं पश्यन्त्यात्मानवस्थितं जतन्तापकृतात्मानो नैनं पश्यन्त चेतसः। जदादित्तगतं तेजो जगद्भासयते खिळं यश्चन्द्रङ्गसि यच्चग्नौ तत्तेजो विद्धिमामकं गामाभिश्च च भूतानि। धारयम्यहमोजसा कृष्णामी चौषधि सर्वा सोमो भूत्वा रसात्मकः। अहं वैश्वनरो भूत्वा प्राणीनं देहवासित प्राणापानसमाजुक्त पचाम्यन्नं चतुर्विधं सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्मृतिर्ज्ञान अपोहनञ्च। वेदैश्च सर्वैरहमेव वेद्यो वेदन्तकृद्वेदविदेव चाहं। द्वावीमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षर सर्वाणि भूतानि कुटस्थो क्षर उच्यते। उत्तमं पुरुषः त्वन्नं परमात्मेत्युदाहृतं जो लोकन्त्रयमाविश्य विवर्तव्य ईश्वरं। यस्मत्क्षरं अतीतोऽहं अक्षराद् अपि चोत्तमम् अतोऽस्मि लोके वेदे च। प्रथितपुरुषोत्तमं जो मामेवं असंगूढो जानाति पुरुषोत्तमं स सर्वविधि भजति मां सर्वभावेन भारतम् इति गुह्यतमं शास्त्रं इदं उक्तं मया नगः। एतद्बुद्धा बुद्धिमन् स्यात् कृतकृत्यश्च भारत। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगं नाम पञ्चदशोऽध्यायः। ॐ श्रीकृष्णार्पणमस्तु। शुभं भवतु, शुभं भवतु, शुभं भवतु।